अथ भक्ति योग नाम द्वादश अध्यायः। अर्जुन उवाच एवं सततयुक्ताये भक्तास्त्वं पर्युपासते एच्चाप्याक्षरमाव्याक्तं तेषाङ्के योगवित्तमः। श्री भगवान् उवाच